नैस्वालराज पृथुपाज से विभोरत्नाविधम् दधरुणेषु गातवे अग्निर्देवा अमृतोदुभस्यत्यथा धर्माणि सनतान दूषत् अन्तर्धूतो रोदसी तस्मयीयते होदानिषत्तो मनुषः पुरोहितः क्षयम् ऋणन्तम् परिभूषयज्जुभिर्देवेभिरग्निवेशितो धियावासुः चेतम् यज्ञानाभिदधस्य साधनम् विप्रासो अग्निम् माहयन्त चित्तेभिः अवांसि यस्मिन्नदे सन्ददर्गिरस्तस्मिन् सुम्ना नियजमाना च के पिता यज्ञानामसूरो विपश्चिनाम् विमानभग्निर्वयनम् च बाघताम् आदिवे सरोदी भूरिवर्पदा पुरप्रियो भन्दते धामाभिः कविः चन्द्रभक्तिम् चन्द्रनाथम् गरिव्रतम् वैश्वानरमत्सुभदम् स्वर्मिदम् विगागन्तोर्निन्दपीठेभिरावृतम् भूर्ण्यम् देवासजिह सुश्रियम् ददुः अग्निर्देवेभिर्मनूढश्च जन्तुभिस्तम् बालो यज्ञम् पूर्वे स सन्धिया रथीरन्तरीयते साधदृष्ट्यभिर्जेरोदमो न अभिषस्ति चातनः अग्नेजरस्वस्तपत्यायुर्जाबिम्बस्वसमिषो दिदीहिनः भयांसिजन्म बृहदश्च जाग्रवभुजिग्देवा रामसि शुक्रदुर्भिपा विश्वजिम् जह्मपति धिन्नरस्वदा यन्तारम् धीनामुचितम् च वाघताम् अध्वरानाम् चेतनम् जातवेदसम्प्रसम् सन्ति नमासा ज्योतिभिर्वृधे देवः सुरणः परीक्षितेरग्निर्बभूभतमासा सुमद्रतः तस्य व्रतानि भूरि भूषिणा भयमुपभूरे पदमासु वृत्तिभिः वैश्वालरथपथा भाण्या च गेजेभिः स्वर्विदभावो विलक्षण जातावृणभुपदानिरोदसी अग्नेता विश्वा परिभूतधिपरा वैश्वानरस्य नन्दनाभ्यो बृहदरीनादेकस्तपस्यया कविः उभाचरा मगयन्न जायता गिर्जा वा पृथिवी भूरेरेतसा